Va a ser limpia. Begini.
Om va am bagini. Arambam. Om vagarta vivasam proktau vagarta pratipattaye jagatah pitarau vande parvati parameshwarau om om enakshara samamnayam adhigamya maheshwarat krutsnam vyakaranam proktam tasmai paninaye namaha om om sahana bhavatu sahanau bhunaktu sahaviryam karavavahai tejasvinavadhitamastu ma vidvishavahai om shantihi 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 Asmat Guru Pyo Namaha.
Uttamam Bhagini, Dhanyavadaha. Astu, Adrishtva, Kim? Sudha Bhagini, Guru. Guru, Iti Padasya, Shabdasya, Sarvani Rupani. Adrishtva, Bhaktum Ichati Vadya?
Adrishtva, Prayatnam Karomi Bhagini.
Ha, Prayatna Eva Karutu Bhagini.
गुरुः गुरु गुरवः हे गुरु हे गुरु हे गुरवः गुरून् 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 गुरु गुरून् गुरून् गुरुं
गुरुं
गुरुं गुरुं गुरु गुरून् गुरुणा गुरुभ्यां गुरुभिः गुरवो गुरुभ्यां
चतुर्थी
चतुर्थी गुरवे गुरवे गुरुभ्यां गुरुभ्यः गुरो गुरुभ्यां गुरुभ्यः गुरो गुर्व गुरु गुर्वो गुरूणां गुरो
पंचमी षष्ठी गुरोः गुरोः
गुरोः हां पंचमी षष्ठी गुरोः
ए ओहो ओहो
औ
ए ओहो ओहो औ हां
पंचमी वदामि गुरो गुरुभ्यां
गुरोः
गुरोः गुरोः गुरुभ्यां गुरुभ्यः गुरोः गुरवो गुरवोः गुरूणां गुरौ
रेफस्ति गुर्वोः
गुर्वोः ओके गुर्वोः गुरूणां गुरो गुर्वोः
सप्तमी
गुरौ गुरौ गुर्वोः गुरुषु
उत्तमम् उत्तमम् उत्तमं पुनः एकवारं वदतु
गुर हे सारि हे गुरुः गुरुः गुरु गुरवः हे गुरो हे गुरु हे गुरवः गुरुं गुरु गुरून् गुरुणा गुरुभ्यां गुरुभिः गुरवो गुरवे वे गुरवे गुरुभ्यां गुरुभ्यः गुरोः गुरुभ्यां गुरुभ्यः गुरोः गुर्वोः गुरूणां गुरौ गुर्वोः गुरुषु
उत्तमम् उत्तमं सुन्दरं
धन्यवादः
उत्तमम् अस्तु शैलजा भगिनी पापजी प्रणाम अस्तु शैलजा भगिनी
भगिनी अहं हरीश् शब्दवत् पठामि भगिनी
अदृष्ट्वा एकवारम् एकवारम्
अदृष्ट्वा अदृष्ट्वा हा प्रयत्नं करोमि
ह्रस्व इकारान्त पुंलिङ्ग
आं भगिनि
हरि करोतु भगिनि
हरिः शब्दः हरिः हरिः हरि हरयः हरिं हरि हरिं हरि हरिन् हरिया हरिये 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 हरिभ्यां हरिभिः हरि हरिये हरि हरिये चतुर्थी हरि तृतीया हरि हरिये हरिणा हरिणा हरिभ्यां हरिभिः हरिया हरि हरिया हरिभ्यां हरिभ्यः हरि
चतुर्थी हरये चतुर्थी
हरये आं भगिनि
ए
हरये या ये या ये
आ ए आ ये औ इति पैटर्न अस्ति
आं भगिनि
तृतीयासे
हरिया हरिभ्यां हरिभिः हरिये हरिभ्यां हरि हरिभ्यः एण्ड् पञ्चमी इस् पञ्चमी हरि हरेः हरेः
उत्तमं
हरेः या ये हा हरेः हरिभ्यां हरिभ्यः एण्ड् षष्ठी इस् पञ्चमी षष्ठी इस् हरेः हरेः हरिणां हरेः हर्योः हरिणां हर्योः हर्योः हरिणां सारी भगिनि हरेः हरिणां हर्योः एण्ड् हरो सप्तमी इस् हरो 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 हरौ हरिणां हरिषु हर्योः सारी भगिनि
हरौ पुनः वदतु
हरौ हरौ हर्योः हर्योः हरिषु षष्टि एण्ड् सप्तमी सेम् नो भगिनि द्विवचनं हर्योः
हर्योः हरिषु एकवारं पुनः वदतु
आं भगिनि वदामि हरिः हरिः हरि हरयः हरिं हरि हरिन् हरिन् हरीन् हरीन् हरया हरिभ्यां हरिभिः हरिये हरिभ्यां हरिभ्यः
एकनिमिष भगिनी तृतीया पुनः वदतु
तृतीया हरिया हरिया हरिभ्यां
भगिनि हरिणा
हरिणा भगिनि हरिया नु भगिनि हरिणा यस् भगिनि हरिणा हरिणा हरि
गुरुणा हरिणा किमर्थं नकार आयाति तत्र
नत्वं रेप् आयाति
तत्पर्यन्तं
निमित्तं
हा निमित्तमस्ति सो हरिणा न
हरिणा नो ऐ थाट् इट् इस् हरिया
अस्तु अस्तु
चिन्ता मास्तु वदामि भगिनि हरिणा हरिभ्यां हरिभिः हरिये हरिभ्यां हरिभ्यः हरेः हरेः हरिभ्यां हरिभ्यः हरेः हरेः हर्योः हरिणां हरेः 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 सप्तमी द्विवचनम् इस् हर्योः हर्योः हरिषु
सप्तमी एकवचन सप्तमी एकवचन
सप्तमी हरोः
हरौ
हरौ हरौ हरौ आं भगिनि हरौ 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 हर्योः हरिषु डे बिफोर् यस्टर्डे ऐ वास् ओके वित् इट् भगिनि बट् अगेन् टुडे
न आन् द स्पाट् लिटिल् बिट् ट्रिकी आल्सो चिन्ता मास्तु भगिनि उत्तमं दीप्शिका भगिनी नमस्कार दीना भगिनी नमस्कार स्वागतं दीप्शिका भगिनी
नमस्कार
किमपि प्रयत्न करोति वा अद्य किम् अकारान्त वा आकारान्त स्त्रीलिङ्गं किम् लता लता इति जानाति वा भगिनि
यस् लता जानाति
जानामि वदतु
हा लता जानामि लता लते लता लति लता लते लता लती लतीं लता
द्वितीया पुनः वदतु
द्वितीया लता लते लता लतां लते लता लतया लताभ्यां लताभिः लतयै लताभ्यां लताभ्यः लतयाः लताभ्यां लत लताभ्यः लतयाः लतयोः लतानां
पञ्चमी षष्ठी एकवचनरूपं पुनः वदतु पञ्चमी पुनः वदतु
पञ्चमी लतया
लतायाः
लतायाः लताभ्यां लताभ्यः लतायाः लतयोः लतानां लतयां लतयोः लतेषु लतायां
केवल तृतीया ह्रस्व ह्रस्वत्वं भवति एकवचने रमया अन्यथा सर्वे आरम् लता 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 लतां लतया तृतीया एव तदनन्तरं चतुर्थी लतायै लतायाः लतायाः लतायाम् इति उत्तमम् उत्तमं पुनः वदतु
लता लते लताः लता लतां लते लताः लतया लताभ्यां लताभिः लतायै लताभ्यां लताभ्यः लतायाः लताभ्यां लताभ्यः लतायाः लतयोः लतानां लतायां लतयोः लतासु हे लते हे लता
उत्तमं सुन्दरं सुन्दरम् अस्तु पापाजी वक्तुमिच्छति पापाजी किं वक्तुमिच्छति रामा
का बोलिए पापा
रामौ रामान् रामेण रामाभ्यां रामैः रामाय रामाभ्यां रामेभ्यः रामात् रामाभ्यां रामेभ्यः रामस्य रामयो रामाणां हे रामौ हे राम
सप्तमी रामे
रामे रामयो रामेषु
उत्तमम् अस्तु बीना भगिनी भवत्या पार्श्वे शब्दमञ्जरी अस्ति वा
नो ऐ डिन्ट् गेट् द शब्दमञ्जरी बट् ऐ एम् ट्रैङ्ग् टु ऐ कुडन्ट् फैण्ड् इट् हियर् ऐ ट्रै टु गेट् इट् फ्रम् इण्डिया
न न अत्र शब्दमञ्जरी संस्कृतभारती वेब्सैट् मध्ये पश्यतु भगिनि
सुधा सन्नि अ लिङ्क् इट् वास् नाट् ऐ कुडन्ट् फैण्ड् देट् ऐ डोण्ट् नो विच् बुक् इट् इस् सो देन् ऐ लुक्ड् एट् द इण्डियन् वेब्सैट् एण्ड् ऐ गाट् वन् बुक् ऐ थाट् ऐ विल् गेट् देट् फ्रम् इण्डिया आस् समबडि टु सेण्ड् इट् टु मी
That might take months and months. अस्तु तदनन्तरम् अन्य किम् अस्तु इकारान्त स्त्रीलिङ्ग इकारान्त अस्ति चेत् कोऽपि प्रयत्न कर्तुम् इच्छति वा? मति 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 सुधा भगिनी वदतु एकवारम्.
आं भगिनि,
इकारान्त स्त्रीलिङ्ग
इकारान्त स्त्रीलिङ्ग मतिवत्. मतिः मति मतयः, हे मते हे मति हे मतयः, मतिं मति मतीन, मतिः मतिः मतिं मति मतिः, मत्या मतिभ्यां मतिभिः, मत्यै मत्ये द्वयोरूपमस्ति, मत्यै मत्ये मतिभ्यां मतिभ्यः, मत्याः मतोः मतेः मत्याः मतेः मतिभ्यां मतिभ्यः, मत्याः मतेः मत्योः मतीनां, मतौ मत्यां मत्यां मतौ मति मत्योः मतिषु.
उत्तमं, तदेव. हे
भगिनी, वन् डौट् भगिनी. So when you say when you said ikarant vibhakti shabdapatti, it does it follow the same pattern as bhavati which you said yesterday?
No, because bhavati itukte kim?
I didn't get it. But bhavati means bhavati. She means, right? She.
No, bhavati dirgha e asti satra.
Oh, okay, this is a shorter e talking.
उत्तमम् उत्तमं. शैलजा भगिनी एकवारं पठतु मति.
दृष्ट्वा भगिनी.
दृष्ट्वा पठतु.
आं भगिनि. मतिः मति मतयः, हे मते हे मति हे मतयः, मतिं मति मतीः, मत्या मतिभ्यां मतिभिः, मत्यै मतये मतिभ्यां मतिभ्यः, मत्याः मते मतेः मतिभ्यां मतिभ्यः, मत्याः मतेः मत्योः मतीनां, मत्यां मत्यौ मत्योः मतिषु.
हे मते
हे हे मते हे मती हे मतयः. आं भगिनि.
उत्तमम् उत्तमम्. अस्तु, अन्य दीप्षिका.
मति शब्दवत् इस् लिटिल् ईजियर् टु रिमेम्बर् नो भगिनि, लैक् द पेटर्न् इस् लैक् यां यां.
हा, किन्तु
मध्यम ऐ मीन् द्विवचनं.
हा, किन्तु मति मति इति शब्दे रूपद्वयं सन्ति, इत्युक्ते पुल्लिङ्गरूप अपि अस्ति, स्त्रीलिङ्गरूपम् अपि अस्ति. अत्र मतये मतेः मतेः मतौ तु पुंलिङ्गरूपम् अस्ति. हरिवत्
हरिवत् हरिवत्
हरिवत् इत्युक्ते
हरिवत् हरये हरिये.
हा, यदि हरि जानाति भगिनी, तदनन्तरं रूपद्वयम् अत्र आयाति. इत्युक्ते मति स्त्रीलिङ्गरूपमपि पुंलिङ्गं रूपमपि एकवचने. तत् विशेष एकं विशेष अंश अस्ति. अस्तु अस्तु, दीप्षिका भगिनी दीर्घ ईकारान्त स्त्रीलिङ्गपदं जानाति वा?
हा जाना, अहं जानामि. नदी, हा नदी, नदी नद्यौ नद्यः, नदीं नद्यौ नदीः, नदीं नद्यौ नदीः, नद्या नदीभ्यां नदीभिः, नद्यै नदीभ्यां नदीभ्यः, नद्यै नद्याः नदीभ्यां नदीभ्यः, नद्याः नद्योः नदीनां, नद्यां नद्योः नदीषु, हे नद्यः
उत्तमम् उत्तमं किन्तु केवल एकम् अंश किञ्चित् स्मरितव्यं तत् किं केवल सम्बोधनरूपम् एकवचने ह्रस्व इ आयाति तत्र अन्यथा सर्वदा दीर्घ इ अस्ति हे नद्यः उत्तमम् उत्तमम् अधुना एकं अस्तु मुख्य तु सर्वं कृतवन्तः एव अस्तु पपजी फल इति स्त्रीलिङ्गं पदं नपुंसकलिङ्गं पदं स्वीकृत्य फल फ्रूट् फल
फलं फले फलानि फलेन फलाभ्यां फलैः फलाय फलाभ्यां फलेभ्यः फलात् फलाभ्यां फलेभ्यः फलस्य फलयोः फलानां हे फलौ हे फलानि
उत्तमम् अस्तु तदनन्तरं सुधा भगिनी पठित्वा वदतु मातृ ऋकारान्त किञ्चित् भिन्नजात एकवारं सर्वे शृण्वन्तु मातृ ऋकारान्त स्त्रीलिङ्गपदं किमर्थं साधारणतया कुटुम्बे जनानां ऋकारान्त अन्ते शब्दाः सन्ति ये जनाः कुटुम्बे सन्ति सम्बोधनरूपम् इत्युक्ते ऋकारान्तपदस्य रूपम् अस्ति सन्ति सर्वे ऋकारान्त अन्ते ऋ आयाति अस्तु एकवारं वदतु भगिनि मातृ
आं भगिनि ऋकारान्तस्त्रीलिङ्गमातृशब्दः माता मातरौ मातरः हे मातः हे मातरौ हे मातरः मातरं मातरौ मातृः मात्रा मातृभ्यां मातृभिः मात्रे मातृभ्यां मातृभ्यः मातुः मातृभ्यां मातृभ्यः मातुः मात्रोः मातॄणां मातरि मात्रोः मातृषु
तदेव अस्तु शैलजा भगिनी पुनः वदतु किन्तु दुहितृ स्वीकरोतु भगिनि दुहितृ समानेव दुहितृ इत्युक्ते
नो ऐडिया भगिनि दुहितृ
यथा मातृ अस्ति शब्दमञ्जर्यां पश्यतु
आं भगिनि
मातृ अस्ति यथा मातृ अस्ति तथा दुहितृ अस्ति
आं भगिनि
पठतु
दुहितृ I'm looking for the page 1 minute back now. Trying to find Matru.
When somebody is reading, you please follow if you don't know it. You must read. So it fits in your visual as well as your audio memory. Huh?
Shabdamanjari. I'm trying to find in Shabdamanjari. Yes, I got it, Bhagini. So it is Dhatru. Dhatru va Bhagini?
No. Dhatru na. Matru. Agrimam pute.
I got the Matru. So, kim shabdam patami?
Duhitru.
Bhagini.
Duhitru itukte?
Duhitru. I don't know the ardham.
Artha itukte kopi janati va?
Daughter.
डाटर् आङ्ग्लभाषायाम् अपि समान एव दुहितृ डाटर् वदतु
दुहितृ आं भगिनि दुहित्रा दुहितरौ दुहितरौ
क्षम्यतां भगिनि एकनिमिष मातृ अस्ति चेत् प्रथमविभक्ति एकरूपं किं
मातृ माता दुहिता दुहिता दुहितरौ दुहितरः हे दुहितः हे दुहितरौ हे दुहितरः दुहितरं दुहितरौ दातृः दात्रा दातृभ्यां दुहित्रा
भगिनी भगिनी क्षम्यतां द्वितीयविभक्ति बहुवचनरूपं वदतु दातृ नास्ति
दातरं
दुहि
दातरं दातरौ
भगिनि प्रातिपदिकं किं दुहि दान दुहि
दुहितरं दुहितरौ सारि भगिनि दुहितरौ
द्वितीयविभक्ति पुनः वदतु दुहितरं
दुहितरं दुहितरं दुहितरौ दुहितृः
दुहितृः
दुहितृः दुहितृः
तदनन्तरं
दुहित्रा दुहितृभ्यं दुहितृभ्यां दुहितृभ्यां दुहितृभिः दुहितृभिः दुहित्रे दुहितृभ्यां दुहितृभ्यः दुहित्रः दुहितृभ्यां दुहितृभ्यः दुहित्रः
दुहित्रः
दातृ मातुः दुहितुः 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 दुहित्रोः दुहित्रीणां दुहितॄणां 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 दुहितिरि दुहितरि दुहितुरि दुहितुरि
तुरि न भगिनि दुहितरि
दुहितरि वा भगिनि
मातरि
मातरि दुहितरि दुहितरि दुहित्रोः दुहितृषु दुहितृषु
किञ्चित् क्लिष्ट जात उत्तमं दीक्षिका भगिनी पुनः पठतु दुहितृ स्वीकृत्य
आं भगिनि दुहिता दुहितरौ दुहितरः हे दुहितः हे दुहितरौ हे दुहितरः दुहितरं दुहितरौ दुहितृः दुहित्रा दुहितृभ्यां दुहितृभिः दुहित्रे दुहितृभ्यां दुहितृभ्यः दुहितुः दुहितृभ्यां दुहितृभ्यः दुहितुः दुहित्रोः दुहितॄणां दुहितरि दुहित्रोः दुहितृषु
अस्तु अद्य अस्तु अत्र के के अंशाः सन्ति एकं तु रुकार रेफ भवति तृतीया चतुर्थी
सुनो
हाँ पापा जी
दुहिता का मतलब कन्या क्यों है
हाँ दुहिता का मन गुड क्वेश्चन ऐ वेरि गुड् क्वश्चन्. वदतु, कोऽपि जानाति वा? अहं वदामि वा? अस्तु, यथा अहं मन्ये दुहित दुहित हित करोति ग्रह द्वे ग्रहे हित करोति. यः हित करोति ग्रहद्वयं सः दुहित्र इति.
Also, also one who milks the cow.
Ah, that is a, that is also there.
जो गाय होती है वो भी दुहिता कन्या.
अच्छा, तो होती है ऐसी दुहित्रा?
ना ना, अदर वे राउंड. दीपा, तदपि समीचीनं, तदपि समीचीनं. किन्तु अस्माकं कक्षायाम् इति एव प्रश्न आयाति एकवारम्. अस्माकं अस्माकं गुरु किं वदति, यः ग्रहद्वयं हित करोति दुहित्र. उत्तमम् उत्तमम् उत्तमं, समीचीनप्रश्नः बाबाजी, धन्यवादः. अस्तु, किं किम् अन्य? अस्तु, एकं पुंलिङ्गरुकारान्त स्वीकृत्य दातृ. अस्तु, दातृरूपं शैलजा भगिनी एकवारं पठतु. दातृ.
आं भगिनि, दातृ
पुंलिङ्गम् अस्ति.
दाता. आं भगिनि. दाता इस् पुल्लिङ्गशब्दवत् भगिनि. आकारान्त?
आकारान्त न भगिनि, ऋकारान्त. दातृ
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 दातृ दातृ
प्रातिपदिकं.
हैकोर्ट् नपुंसकलिङ्ग. इस् देर् नपुंसकलिङ्गम् आल्सो भगिनि, ऋकारान्त?
न, अधुना पुंलिङ्गं पठतु भगिनि.
Right, Bhagini.
नपुंसकलिङ्गम् अपि अस्ति, किन्तु अधुना किं किमर्थं पुंलिङ्गपद किञ्चित् प्रसिद्धः. नपुंसकलिङ्गम् अपि अस्ति, किन्तु प्रसिद्धः पद पुंलिङ्गं पदं दातृ. वदतु एकवारं, वदतु ऋकारान्त.
जस्ट् वन् मिनिट्.
दातृ दाता दातारौ.
ट्रैङ्ग् टु फैण्ड् द पेज.
दाता दातारौ दातारः
ऋकारान्त.
हे दातारौ हे दातार. हा, सुधा भगिनी पठतु.
आं भगिनि, ऋकारान्तपुंलिङ्गदातृशब्दः. शैलजा भगिनी, अष्टादश पुटसङ्ख्या.
सो यु हेव् टु स्पेण्ड् टैम् वित् दिस् ब्यूटिफुल् लिटिल् बुक् सो यु गेट् फमिलियर् वित् वाट् इस् वेर् इस् दि ओन्ली वे. इन् क्लास् इस् ओके टु नो द पेज् नम्बर्स्, बट् intuitively you should know, oh, pumlingam rukaranta approximately where in the book it will be, napumsakalingam where in the book it will be. Just get familiar with the layout of the book. Very, very important. Astu, patatu Sudha bhagini. Datru
datru shabdah.
Sure bhagini.
दाता दातारौ दातारः हे दातः हे दातारौ हे दातारः दातारं दातारौ दातॄन् दात्रा दातृभ्यां दातृभिः दात्रे दातृभ्यां दातृभ्यः दातुः दातृभ्यां दातृभ्यः दातुः दात्रोः दातॄणां दातरि दात्रोः दातृषु
दातृषु उत्तमम् अधुना शैलजा भगिनी पठतु दातृ पुंलिङ्ग ऋकारान्त पठतु भगिनी
दातृ दाता दातारौ दातारः हे दातः हे दातारौ हे दातारः दातारं दातारौ दातॄन् दातॄन् दात्रा दातृभ्यां दातृभिः दात्रे दातृभ्यां दातृभ्यः दातुः दातुः दातृभ्यां दातृभ्यः दातुः दात्रोः दातॄणां दातरि दात्रोः दातुषु
दातृषु उत्तमम् उत्तमं यथा कर्ता आयाति कर्ता इति पदं वयं बहु किमपि वारं उक्तवन्तः वर्गे कर्ता किं कर्ता अपि आयाति हा दीक्षिका भगिनी कर्तृ इति योजयित्वा ऋकारान्त पुंलिङ्ग वदतु भगिनी कर्तृ
कर्तृ कर्तृ कर्तृ काता कातारौ
कर्ता
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 अच्छा कर्ता 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 कार्तारौ
न भगिनि
न न कर्ता कर्तारौ कर्तारः कर्ता कर्तारौ कर्तारः हे कर्तः हे कर्तारौ हे कर्तारः कर्तारं कर्तारौ कर्तॄन् कर्त्रा कर्तृभ्यां कर्तृभिः कर्त्रे कर्तृभ्यां कर्तृभ्यः कर्तृः कर्तृभ्यां कर्तुः कर्तुः कर्तृभ्यां कर्तृभ्यः कर्तुः कर्त्रोः कर्तॄणां कर्तरि कर्त्रोः कर्तृषु
सप्तमी पुनः वदतु कर्तरि
सप्तमी कर्तरि कर्त्रोः कर्तृषु
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 अत्र अपि रे ऋकारान्त प्रातिपदिकं भवति चेत् तृतीया चतुर्थी रेफ् आयाति दात्रा दात्रे अपि च षष्ठी सप्तमी द्विवचने दात्रोः रेफ् आयाति परिवर्तनं भवति अपि च प्रथम द्वितीय दातारौ कर्तारौ समानेव योधृ अस्ति योधृ पपजि योधृ स्वीकृत्य सर्वाणि रूपाणि वदतु समानेव योधृ योधृ इत्युक्ते किं कोऽपि जानाति वा योधृ इत्युक्ते किं
योद्धा इत्युक्ते सोल्जर्
वारियर्
क्षत्रिय
तदेव योधृ पपजि अन्म्यूट् करोति योधृ इति स्वीकृत्य सर्वाणि रूपाणि वदतु
योधारौ योधारः
अत्र
योद्धा
दकार धकार योद्धा एकम् अन्यसूत्र आयाति
योद्धारौ योद्धारः
वदतु पपजी
योद्धारम् योद्धारं द्वितीय बहुवचन योद्धृन् योद्धृन् धृन् योद्धृन्
तृतीय योद्धा योद्धृभ्यां चतुर्थी चतुर्थी योद्धृ योद्धृभ्यां योद्धृभ्यः पञ्चमी योधुः पञ्चमी
योधुः
योधुः ध्रुः न धुः योधुः किञ्चित् क्लिष्ट जातः योधुः योद्धृभ्यां
योद्धृभ्यः
तदनन्तरं षष्ठी
योधुः
योद्धुः
पञ्चमी
योद्धृः
योद्धृः
योद्धॄणां तदनन्तरं योद्धॄणां सप्तमी योद्धरि योद्धरि उत्तमम् अग्रिमम् दृष्ट्वा वदतु योद्धृः
योद्धृषु
योद्धृषु किञ्चित् क्लिष्ट जात उत्तमं
भगिनि योद्र शब्दे दकारस्य पूर्वम् एकः ह्रस्व दकार अपि अस्ति वा
अस्ति ध योद्धा योद्धा यकार ओकार दकार धकार आ योद्धा उत्तमं भगिनि तदेव उत्तमम् अस्तु अस्तु उत्तमं किञ्चित् किञ्चित् अभ्यासेन वयं अग्रे सरेम अस्तु अधुना किं कुर्मः अस्तु शैलजा भगिनी वद् धातुतः तव तु रूपं वदतु वद् धातुतः भवतु रूपम्
आं भगिनि वदति
हा वदति तु लट् अस्ति अस्तु अन्यत्
आं भगिनि लट् रूपम् उक्तवान्
लट् अस्ति वदति किन्तु
वदति लट् रूपम् आं भगिनि
वद् वद् अस्ति वच् वच् अस्ति चेत् तव तु रूपं वदतु तत्तु प्रसिद्धः अस्ति वच् धातुतः तव तु रूपं किं पुनः वदतु
वच्
भवती उक्तवती एव वदतु
यस् भगिनि
उक्तवती एव उक्तवती एव उक्तवती एव भवति इत्युक्ते
उक्तवान् उक्तवान्
इत्युक्ते धातुतः एकवारं शृणोमि वच् धातुतः उक्तवान् आयाति किन्तु वद् धातुतः उदितवान् आयाति उदितवान् आयाति किञ्चित् भेदः अस्ति इत्युक्ते वच् चकार अस्ति चेत् उक्तवान् किन्तु चकार नास्ति चेत् वद् अस्ति चेत् उदितवान् किञ्चित् भिन्न उदितवान् उत्तमं भगिनी सेव् सेव् धातुतः वदतु तव तु रूपं
सेव्
सेव् इत्युक्ते
सेव् लट् रूपं सेवति वा भगिनि
लट् रूपं सेवति तदनन्तरं
सेवितवान्
सेवितवान् सेवितवान् इकार
सेवितवान् इकारान् सेवितवान्
दृष् धातुतः वदतु दृष् धातुतः
दृश् दृष् धातुतः पश्यति आयाति
उत्तमम् अस्तु धन्यवादः सुधा भगिनी
धन्यवादः
हा ज्ञा धातुतः वदतु ज्ञा धातु
ज्ञा धातु जानाति इति लट् रूपं
लट् रूपं
ज्ञातवान् ज्ञातवती
हा ज्ञातवान् ज्ञातवान् उत्तमं श्रु धातुतः लट् रूपं श्रु धातुतः
श्रुतवती
श्रुतवती लट् लट्
शृणोति
शृणोति
शृणोति श्रुतवान् श्रुतवती
स्वादिगणे अस्ति उत्तमम् अस्तु स्था
स्थापयति स्थितवान्
लट्
लट् रूपं स्थादातु तिष्ठति
तिष्ठति
तिष्ठवान् तिष्ठवती
न न न
स्थापितवान् स्थापितवती
न तत् पुगागम न आयाति भगिनि केवल तव तु रूपं स्थितवान्
स्थितवान् स्थितवती
स्थितवान् स्थितवती अस्तु भज् धातुतः भज्
भज् भजति
भजति तु लट् हा
लट् रूपं भजति भजितवान् भजितवती
भक्तवान् किञ्चित् परिवर्तनं भवति तत्र
भक्तवान्
भज् धातुतः भक्ति आयाति इति पदं तु वयं सर्वं सर्वे जानीमः भक्ति भक्ति कथम् आयाति भज् धातुतः आयाति भजति भजित्वा भजित्वा भक्तः भवति भजित्वा भजित्वा भक्तः भवति उत्तमम् उत्तमम् एकम् अन्य अस्तु शक् शक् अस्ति चेत् वदतु भगिनी लट् रूपं
शक्नोति
शक्नोति उत्तमं पञ्चमे पञ्चमगणे हा अपि च तव तु
अस्ति चेत् शक्तवान् शक्तवती
शक्तवान् उत्तमम् उत्तमं तदेव अस्तु दीप्षिका भगिनी किं लिख् धातु लिख् धातुतः वदतु लट् रूपं
जीवने
ओ अस्ति वा हा पापाजी लिख् धातुतः लट् रूपं
लिखति
हा लिखति उत्तमं लिखति अधुना तवतु तवतु इत्युक्ते यथा वच् धातुतः उक्तवान् लिख् धातुतः लिखितवान् उत्तमम् इत्युक्ते मध्ये इ आयाति लिख् धातु लिखितवान् लिखि अन्य एकं ह्रस्व इ आयाति इडागमः इति नाम किम् इडागम इट् आगमः आगमः इत्युक्ते किं कोऽपि जानाति वा आगमः इत्युक्ते किम् आना मित्रवत् मित्रवताना इत्युक्ते किम् बिना किसी को हटाकर आना मित्रवत् आगम आगम इत्युक्ते मित्रवत् आना व्याकरणे आगम इत्युक्ते मित्रवत् आना किन्तु व्याकरणे शत्रुवत् आना इत्युक्ते किम् आदेशः व्याकरणे यदा आदेशः भवति चेत् शत्रुवत् अस्ति किसी को हटाकर आता है वो वर्ण उसको आदेश बोलते हैं अत्र तु इडागमः इट् इत्युक्ते इकार ह्रस्व इकार मित्रवत् आयाति उत्तमं पापजी मिल् धातुतः मिल् धातुतः लट् रूपं
मिलति
मिलति अपि च मिल् धातुतः क्तवतु रूपं क्तवतु रूपं यथा लिखितवान्
मिलितवान्
मिलितवान् तदेव सुन्दरम् अस्तु किं पा धातुतः पा धातुतः लट् रूपं पा इत्युक्ते
पाति
पा इत्युक्ते किम् अर्थः कः बालकः दुग्धं
पिबति पिबति
पिबति पा धातुतः पिबति आयाति किञ्चित्
पिबति
हा पा पिबति अधुना तव तु रूपं
पिबति
पीतवान् किञ्चित् भिन्न जात पीतवान् बालकः गच्छति पीतवान् बालकः गच्छति अस्तु अन्य कृ धातुतः पापाजी कृ धातुतः इत्युक्ते
कृ करोति
करोति अपि च तव तु रूपं कृ धातुतः यथा किं दृष् धातुतः दृष्टवान् कृ धातुतः
कृतवान्
कृतवान् तदेव सुन्दरं कृतवान् हा कृतवान् अस्तु अस् धातु अस् धातुतः लट् रूपं
सन्ति
हा अस्ति स्तः सन्ति उत्तमम् अस्ति अस्ति एकवचनरूपम् अस्ति अधुना तवतु रूपं परिवर्तनमस्ति तत्र भूतवान् अस् धातुतः भू आयाति किमपि रूपम् अस्ति न तत्र नास्ति अस्धातुतः अस् धातु यदि वयं तव तु रूपम् इष्टवती तदनन्तरम् इष्टवन्तः भूतवान् भूतवती भूतवत् त्रीणि रूपाणि अस्तु सुधा भगिनी नी धातु वदतु भगिनी नी धातु
नी नयति
नयति
नीतवान् नीतवती
हा नीतवान् नी इत्युक्ते
टु क्यारि
हा टु लीड् टु क्यारि वेन् यु क्यारि यु लीड्
रैट्
लीड् टु क्यारि यथा नदी सर्वं नयति
नयति
नदी नयति उत्तमम् अस्तु भुज् भुज् धातुतः किं भवत् भगिनी
भुज् धातुतः
भुक्तवान्
हा भुक्तवान् लट् रूपं
भुजति
भुजति तु न एकनिमिष भुज् धातुतः किञ्चित् भ्रम जाता अधुना एकवारं पश्यतु तु भुज् किम् अभवत् अहमपि विस्मरामि भुज् धातु उदादिगणे न भुजति वा न भुज् तु अस्तु तुदादिगणे भुज् अस्ति चेत् भुजति किन्तु एकनिमिष भुज् रुधादि अस्ति चेत् हा भुनक्ति रुधादि अस्ति चेत् भुनक्ति अस्ति भुज् यथा भवती उक्तवती भुक्तवान् लट् रूपं किं भुनक्ति भगिनि
भुनक्ति
अहमपि विस्मरामि भुनक्ति 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 अस्तु अन्या किम् अस्तु अधुना हा जी धातुतः भगिनी जी जी इत्युक्ते
जी
पापजी वदतु जी
जी
हा अर्थः
जी जयति
जयते तदेव जी जयते इत्युक्ते लट् रूपं सरलमेव जी जयते लट् रूपं जयति
जयति
जयति रामः जयति जयति अधुना तव तु रूपं
जयते
तव तु रूपं ह्रस्व इ भवति तत्र जितवान् जितवान् जितवती इत्युक्ते जितवान् रामः सर्वेषां मनसि तिष्ठन्ति जितवान् उत्तमं घ्रा धातुतः घ्रा कीदृशधातु घ्रा
घ्रा ग्रहीतवान्
किञ्चित् भिन्न जात घ्रा घ्रा इत्युक्ते अर्थः कः गन्धोपादाने घ्रा भ्वादिगणे एव भ्वादिगणे किन्तु जिघ्रति जिघ्रति पुष्पं जिघ्रामि पुष्पं जिघ्रामि तव तु रूपं घ्रातवान् घ्रातवान् अन्यरूपमपि अस्ति घ्राणवान् घ्राणवान् घ्रातवान् घ्रातवान् घ्राणवान् घ्रातवान् घ्राणवान् अस्तु अधुना त्वान्तरूपं वदतु हा शैलजा भगिनी वदतु खाद् धातु त्वान्तरूपं
खादित्वा
हा उत्तमं गम्
गत्वा
गत्वा उत्तमं पा
सॉरि भगिनी व्हाट इज दैट
पा पा
पा पीत्वा
उत्तमम् अपि च पट्
पठित्वा
पठित्वा उत्तमम् अस्तु दीप्शिका भगिनी सिद्धा वा अस्ति वा
आं भगिनि
अस्तु अस्तु श्रु धातु त्वान्तरूपं वदतु त्वान्त इत्युक्ते किम् पास्तु अस्ति किन्तु कीदृश पास्ट् स्वान्त इत्युक्ते कलजा भगिनी वदतु स्वान्त इत्युक्ते किम्
त्वान्तरूपं भूतकालं रूपं भवति द्वे क्रिये योजित्वा मध्ये त्वान्तरूपं भवति
भवति इत्युक्ते एकः
एकं कार्यं समाप्य द्वयो कार्यं
अन्य किमपि कार्यं यदा एकमेव कर्ता करोति चेत् कर्ता तु एकमेव
कर्ता तु एकमेव
एकमेव हा एकः कर्ता यदा कार्यद्वयं करोति प्रथमकार्यं समापित्वा अन्यकार्यं करोति चेत् प्रथमकार्यं त्वान्तरूपम् इति वयं स्वीकृतवन्तः इत्युक्ते दृष्ट्वा वदतु पीत्वा गच्छतु अवगतं दीप्शिका
भगिनी
श्रुधातुतः वदतु स्वान्तरूपं श्रुधातुतः
श्रुत्वा
श्रुत्वा तव तु रूपं
त्वान्त श्रुत्वा तव तु
इत्युक्ते श्रुतवान्
अच्छा श्रुतवान् तव तु भूतकाल तव तु श्रुतवान्
श्रुतवान् उत्तमं दृष् धातुतः वदतु स्वान्तरूपं
दृष्ट्वा दृष्टवान्
दृष्टवान् दा धातु दा इत्युक्ते दाने दाने दा दाने दा दाने
दा
हा दा अस्ति चेत् त्वान्तरूपं किम्
दत्त्वा
दत्त्वा तव तु रूपं
दत्त्वा त्वान् त्वान् दत्तवान्
न त्वान्तरूपं तु दत्त्वा दत्त्वा किन्तु
दत्त्वा
तव तु रूपं
Tvan is Dattva and Tavatu Tavatu Dattva Dattvan
Uttamam Tadeva Dattvan Uttamam Astu Gadhatu Gadhatu
Gatvan Tavatu Gatvan and Gatva
Gitva
Achha Gitva
Ga Ghi Bhavati
Ghi Achha Gitva
Gitva Ga Sutra
Gitva
Uttamam
Gitva Ischukte Ja Raha
Gakar Gakar
Jakar
Gakar Gitva
अच्छा आप गीतवा जैसे गाना वाला गीतवा
उत्तमम अस्तु अन्य क्रोधातु
क्रोधातु कृत्वा
हाँ
कृत्वा और कृतवान
कृतवान कृतवान कृतवान
कृतवान
कृतवान
कृतवान
स्मृधातु स्मृधातु
स्मृ स्मृत्वा स्मृत्वा एंड
स्मरितवा
स्मृत्वा
स्मरितव स्मरित्वा
समितम
स्मरित्वा
अच्छा स्मरित
मापुरा
स्मरित्वा स्मरित्वा
अपिचे तवतु
स्मरित्वा
हाँ
तू स्मरितवान स्मरितवान
अस्तु पृष्ठातुतः
पृष्ट्वा
पृष्ट्वा पृष्ट तकार
पृष्ट्वा अच्छा पृष्ट्वा पृष्ट्वान
पृष्टवान उत्तमम उत्तमम अस्तु अस्तु अग्रिमम पठामः वा उत्तमम उत्तमम अभ्यास तु उत्तममेव अस्तु अधुना उत्तमम अस्तु सुधा भगिनी पठतु भगिनी अग्रिमम पुस्तके कुत्र वयम्
आम् भगिनी
भविष्यत्कालरूपाणि इत्युक्ते
फ्यूचर टेंस लुट लुट लकार
लुट लुट लकार उत्तमम् पठतु
सुब्रह्मण्यः श्वः विद्यालयं न गमिष्यति सः चिकित्सालयं गमिष्यति तत्र वैद्यं द्रक्षयति तेन सह सम्भाषणं करिष्यति स्वस्य अनारोग्यं निवेदयिष्यति सः श्वः न क्रीडिष्यति गृहे उपविश्य पाठं पठिष्यति
उत्तमम् उत्तमं शैलजा भगिनी प्रथमवाक्यम् अर्थः कः
Excuse me, Bhagini, which page number Abhyas Pustaka?
41.
Okay, yeah, thank you.
Shailaja Bhagini?
Aam Bhagini.
Prathamam Vakyam Patatudu.
Subramanyah Shvaha Vidyalayam Na Gamishyati.
Ityukte?
Subramanyah did not go to school the next day.
Did not go the next
Kamishyati day. Is it's
will not
making
go
sense.
To school tomorrow.
Will not go.
Subramanyam will not go to school tomorrow.
Will not go.
Will not go.
Yeah. Shwa matlab Kamishyati future.
Future. Not go. Will not go.
Future tense. Sorry. Yeah. Will not go.
Will not go. Will not go. Agrimam Vakyam Patatu Shailaja Bhagini.
सः चिकित्सालयं गमिष्यति. हिल् गो टु हास्पिटल्.
हास्पिटल्. दीप्शिका,
तत्र
दीप्शिका भगिनी अग्रिमम्
अग्रिमं तत्र वैद्यं द्रक्ष्यति. वहां उसको वैद्य देखेगा. तत्र
वैद्यं द्रक्ष्यति इत्युक्ते
वैद्य द्रक्ष्यति फ्यूचर टेंस देखेगा.
वैद्यं
मतलब वैद्य नहीं होता. अच्छा वैद्य लोग बहुत सारे वैद्य.
ना भगिनी वैद्यम ना ना वैद्यम विभक्ति रूपम किम भगिनी तत्र
लाइक फलम फले फलानी वैद्यम वैद्ये वैद्यानि ऐसा है.
वैद्य लिंगम किम एकवारं पश्यतु.
पुल्लिंग.
पुल्लिंग अस्ति वा. एकवारं पश्यतु तदनन्तरं वदतु. एकवारं पश्यतु वैद्यम् इत्युक्ते किम्.
वैद्यं नपुंसकलिङ्ग
न लिङ्गं किं भगिनि एकवारं पश्यतु. स्पोकन् संस्कृत मध्ये पश्यतु दीप्शिका भगिनी. सुधा भगिनी वदतु.
वैद्यं द्वितीयविभक्ति एकवचनं.
द्वितीयविभक्ति अत्र कथं जानीमः.
वैद्यं द्रक्षयति. द्रक्षयति इति सकर्मकक्रियापदमस्ति.
अपि च
वैद्यम् इति कर्मपदम्
अकारान्त पुंलिङ्गपदम्
पुंलिङ्गपदं रामवत् अस्ति.
रामवत् अस्ति दीक्षिका भगिनी. वैद्य रामवत् अस्ति. वैद्यम् इत्युक्ते रामम्. रामम् इत्युक्ते
मम. रामम् इस् द्वितीय विभक्ति एकवचन. रामम्
अत्र किम्. अत्र किम्
कर्ता ने कर्म को कर्मपदम हुआ ना. तो मतलब उस पे एक्शन होएगा. मतलब एक्शन कर्ता कर्म पे एक्शन करता है ना.
इत्युक्ते तत्र वैद्यं द्रक्ष्यति इत्युक्ते
मतलब वो वैद्य को देखेगा.
तदेव.
मतलब सुब्रह्मण्यं वैद्य को देखेगा. अच्छा
सुब्रह्मण्यं ढूंढेगा. ही हैज टू फाइंड वन ना. तब
ढूंढेगा.
हम लोग जाते हैं ना मिलने डॉक्टर के पास. थोड़ी आता है हमसे मिलने. कौन जाता है. हम ही तो जाते हैं. तत्र वैद्यं द्रक्ष्यति. द्रक्ष्यति. अग्रिम पठतु.
तेन सह सम्भाषणं तेन सह सम्भाषणं करिष्यति.
इत्युक्ते
तेन सह उसके साथ बातचीत सम्भाषणं करेगा.
करेगा. उत्तमम्. केन.
केन. केन. केन. तेन. केन और तेन इकट्ठा हुआ ना. तेन तो केन. केन का
केन ना भगिनी. केन.
केन. किससे. किससे संभाषण करेगा है ना. केन. तो तेन. तेन उससे मतलब वैद्य से.
अस्तु. तेन सह इत्युक्ते वाक्यं वदतु भगिनी, तेन केन?
तेन केन? तेन सः
न भगिनी, तेन केन?
तेन सुब्रह्मण्य, तेन वैद्यः, वैद्यं, तेन वैद्यः.
विभक्तिरूपं किं? तेन,
तेन तृतीयविभक्ति.
वैद्य तृतीय किं?
वैद्य. ओके, अच्छा, तो तृतीय विभक्ति राम का हुआ, रामेण, तो वैद्येन,
वैद्येन,
वैद्येन, हाँ, वैद्येन, तेन वैद्येन
सह,
सह,
सह, सह इत्युक्ते
सह मतलब उसके, सह मतलब साथ, उसके साथ ना.
तेन वैद्येन सह कः करिष्यति, कः करिष्यति,
कः करिष्यति सम्भाषणं, सम्भाषणं करिष्यति,
कः करिष्यति,
कः करिष्यति, कः मतलब कः, कः करिष्यति, कौन करेगा, तो सुब्रह्मण्यम्.
सम्पूर्णवाक्यं वदतु भगिनी.
सुब्रह्मण्यं सम्भाषणं, सम्भाषणं करिष्यति
भगिनी. सुब्रह्मण्यं प्रथमवाक्यं पठतु, प्रथमं वाक्यं पठतु.
सुब्रह्मण्यः, सुब्रह्मण्य, सुब्रह्मण्य
कथं दत्तं तत्र? सुब्रह्मण्यः,
सुब्रह्मण्यः
कर्ता किं? सुब्रह्मण्यः कर्ता किं? प्रथमविभक्ति
सुब्रह्मण्यः,
सुब्रह्मण्यः इति तु कर्ता. अधुना तेन सह सम्भाषणं करिष्यति, सम्पूर्णवाक्यं वदतु.
सुब्रह्मण्यः, सुब्रह्मण्यः वैद्यः सम्भाषणं करिष्यति.
कथं भगिनी? सुब्रह्मण्यः वैद्यस्य
करेगा ना, तो रामेण, वैद्येन सम्भाषणं करिष्यति
इत्युक्ते
सुब्रह्मण्यं, सुब्रह्मण्यः वैद्येन, वैद्येन सम्भाषणं करिष्यति.
उच्चारण, उच्चारण समीचीनं भवेत्, सर्वदा भवेत्. हिन्दीभाषा नास्ति अत्र. उच्चारण समीकरोतु इत्युक्ते
सुब्रह्मण्यः वैद्येन,
अरे
हलन है ना, राम, राम उसमें नहीं है हलन, रामम तृतीय है, रामेण. अच्छा, तो वैद्येन संभाषणम करिष्यति.
इत्युक्ते सुब्रह्मण्यः तेन वैद्येन सह सम्भाषणं करिष्यति इति सम्पूर्णवाक्यम्. पुनः वदामि, सुब्रह्मण्यः तेन एकवारं शृणोतु भगिनि, एकवारं शृणोतु. सुब्रह्मण्यः तेन वैद्येन सह सम्भाषणं करिष्यति. किमर्थं तेन वैद्येन, किमर्थं तेन वैद्येन? तेन, तेन तु दत्तमेव, वाक्ये तु दत्तमेव तेन. सुब्रह्मण्यः तेन वैद्येन सह सम्भाषणं करिष्यति. अवगतम्?
तो तेन मतलब कि उससे ना, तो अपन कह रहे रमणीयम
भगिनी, तेन कुछ नहीं होता, तेन किमपि नास्ति,
तेन
वदतु।
हाँ तेन, तेन मतलब, तेन मतलब उससे, है ना। तो अपन बोल रहे हैं सुब्रमण्यम तेन मतलब उससे,
सुब्रमण्यम
सुब्रमण्यः तेन मतलब उससे, और फिर अपन वैद्य बोल रहे हैं वैद्येन, वैद्येन
इत्युक्ते तेन वैद्येन विशेषण विशेष्य भाव, सो दैट इट इज क्लियर इन आवर माइंड व्हाट वी आर टॉकिंग अबाउट।
अच्छा,
वो उस, हिंदी में हो जाएगा वो सुब्रमण्य उस डॉक्टर से, हिंदी में हम ऐसा हो जाएगा। सी बिकॉज बिफोर दैट तत्र वैद्यम द्रक्ष्यति, उसने वो एक डॉक्टर को देखेगा, तेन सह जिस डॉक्टर को देखेगा उससे बात करेगा, केन सह इत्युक्ते सुब्रमण्यः तेन वैद्येन सह संभाषणं करिष्यति। अवगतम्? स्पष्टम् अस्तु। अधुना हा वीणा भगिनी पठतु।
स्वस्य आरोग्यं निवेदयिष्यति। स्वस्य अनारोग्यं निवेदयिष्यति।
स्वस्य अनारोग्यं निवेदयिष्यति इत्युक्ते किं? सरलभाषा
he will niveda is like request, request on unhealthy health something,
on his non health,
on his non health,
anarogyam, arogya to healthy, anarogya unhealthy,
swasya means health, right? What is swasya?
Swasya self, अपने
सेल्फ, ओके सेल्फ, ओके स्वस्य
बीमारी,
अपनी बीमारी के बारे में उसको 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 उसके बारे में बोलेगा,
पूछेगा
पूछेगा बोलेगा, ओके पूछेगा।
स्वस्य अनारोग्यम निवेदयिष्यति,
निवेदयिष्यति
इत्युक्ते निवेदनम करिष्यति,
रिक्वेस्ट रिक्वेस्ट राइट,
रिक्वेस्ट निवेदनम करिष्यति
करिष्यति निवेदयिष्यति।
अधुना सुधा भगिनी कः करिष्यति?
सुब्रह्मण्यः करिष्यति।
किं करिष्यति?
वैद्येन सम्भाषणं करिष्यति स्वस्य अनारोग्यं कृत्वा,
अनारोग्यस्य कृत्वा, अनारोग्यस्य कृत्वा इत्युक्ते सम्पूर्णवाक्यं किं? स्वस्य किं? स्वस्य कस्य?
सुब्रह्मण्यस्य।
सम्पूर्णवाक्यं वदतु।
सुब्रह्मण्यः
न
सुब्रह्मण्यस्य अनारोग्यं निवेदिष्यति, सुब्रह्मण्यस्य स्वस्य अनारोग्यं
विशेषणं विशेष्यभावः,
द्वयोः षष्ठी अस्ति।
खुद के बारे में, कौन खुद के बारे में?
सुब्रह्मण्यस्य
खुद के बारे में, स्वयं के बारे में, सुब्रह्मण्य स्वयं के बारे में, हिंदी में ऐसा हो जाएगा वो। स्पष्टता आयाति तत्र। सो सुब्रह्मण्यस्य स्वस्य अनारोग्यं निवेदयिष्यति, निवेदयिष्यति। अग्रिमं पठतु सुधा भगिनी।
सः
श्वः न क्रीडिष्यति. सुब्रह्मण्यः श्वः न क्रीडिष्यति
इत्युक्ते
सुब्रह्मण्यः विल् नाट् प्ले टुमारो.
सः सुब्रह्मण्यः कौन सा सुब्रह्मण्य? वो वाला जिसके बारे में हम बात कर रहे हैं. सह
सह सह सुब्रह्मण्यः श्वः न क्रीडिष्यति.
न क्रीडिष्यति विल नॉट प्ले टुमारो. सुब्रह्मण्यः श्वः न क्रीडिष्यति. उत्तमम्. अग्रिमं पठतु.
गृहे उपविश्य पाठं पठिष्यति. सुब्रह्मण्यः गृहे उपविश्य पाठं पठिष्यति
इत्युक्ते
he will sit at home and read the patam.
Upavishya kidrisha padam?
Upavishya lyudanta asti.
Lyap
lyap lyap.
Lyap asti. Uttamam uttamam. Lyap
asti. Upasarga asti.
Upasarga asti. Upasarga kim? Shalaja bhagini.
सारी भगिनी
उपसर्ग किं तत्र कः उपसर्ग?
उपसर्ग उप उप विषय इस् वर्ड् एण्ड् उप इस् उपसर्ग. यकार या अस्ति चेत् ल्यप्.
उत्तमं. धातु किं? धातु किं?
विषय विषय
न भगिनी
विषय
धातु किम्? कः धातुतः आयाति?
चेक् भगिनि.
सुधा भगिनि वदतु धातु.
उपविश्य वा
वदतु.
तिष् धातु
न न न
ता धातु
न भगिनि
न
उपविशति इत्युक्ते
उपविशति इत्युक्ते लट्रूपमस्ति.
तदनन्तरं
उपविशति उपविशति विश् धातु अस्ति. उपसर्ग अस्ति
विश् धातु. धातु तु विश् अस्ति. विश् उपविश् इत्युक्ते एकनिमिष धातु विश् सृज विश् विष् धातु अर्थः किम् एकवारं पठतु. विष प्रवेशने टु एण्टर् विष् धातु इत्युक्ते किं? प्रवेशने. प्रवेशने इत्युक्ते
टु एण्टर्.
टु एण्टर् किन्तु उपसर्ग आयाति चेत् अर्थपरिवर्तनं भवति.
उपसर्ग अस्ति इति कारणस्य क्वान्तप्रयोज्यं न अस्ति इति अस्ति. तवतु नास्ति. ल्यप् अस्ति.
ल्यप् आयाति. किमर्थं ल्यप् आयाति? आदौ उपसर्गः अस्ति. उप अपि च एकम् एकम् अंश तु तत् तदेव. इत्युक्ते यदि धातोः आदौ इत्युक्ते धातु के पहले उपसर्ग अस्ति चेत् तदनन्तरं ल्यप् रूपम् आयाति. ल्यप् इत्युक्ते उपविष्ट्वा इति असमीचीनम्. उपविश्य इति समीचीनम्. अपि च विश् धातु अर्थ तु प्रवेशने इत्युक्ते अन्तर्जाना. किन्तु उप आदौ अस्ति चेत् अर्थपरिवर्तनं भवति बैठना फ्रॉम सिंपली एंटरिंग अर्थ चेंजेस टू सिटिंग मेनी टाइम्स अ उपसर्ग कैन डू दैट समटाइम्स इट आल्सो विल रिवर्स द मीनिंग यथा अन किम अनारोग्यम अन इति उपसर्ग उपसर्गतः किमर्थं किं भवति विपरीतार्थकः भवति लाइक अनलाइक आंग्लभाषायां लाइक डिसलाइक तथा समानेव तत्र अत्र किम् अभवत् उपविश्य ल्यप् रूपम् उपसर्ग आदौ अस्ति चेत् अधुना किं गृहे गृहे किं रूपं किं भगिनि
गृहे सप्तमी एकवचनम्
सप्तमी हा गृहे उपविश्य कस्य गृहे
सुब्रह्मण्यस्य गृहे उपविश्य पाठं पठिष्यति
सुब्रह्मण्यस्य गृहे सुब्रह्मण्यः स्वस्य गृहे उपविश्य पाठं पठिष्यति अवगतं सर्वे
आं भगिनि
हा अधुना
एक प्रश्न अस्ति ये अनारोग्यम में रोग्य रोग का मतलब तो बीमारी होता है
बीमारी आरोग्यम इत्युक्ते
आरोग्यम मतलब जिसको बीमारी नहीं है
नहीं है अनारोग्यम इत्युक्ते
तो अपोजिट होगा रोग मतलब बीमारी है बारे में पूछेगा तो स्वस्यम अना की क्यों जरूरत है वहाँ
किमर्थम हेल्थ इत्युक्ते इफ यू लुक अप जस्ट हेल्थ संस्कृत भाषायां किम अभवत् लुक पदं किं वदतु कोऽपि हेल्थ इत्युक्ते आरोग्य इति
आरोग्यम्
आरोग्य इति प्रातिपदिकं नपुंसकलिङ्गं पदमस्ति
इज़ इट् उपसर्ग भगिनि अनारोग्यम् अना इज़ उपसर्ग वा
अना इज़ उपसर्ग रोग अनारोग्य इत्युक्ते बहु मन्त्रेषु बहुषु मन्त्रेषु आरोग्यम् इति वयं प्रार्थनारूपेण यच्छन्ति आरोग्यम् इति एकं सामान्यपदम् अस्ति संस्कृतभाषायां भगिनि तदेव अनारोग्यम् अवगतम्
भगिनि we often use in telugu bagni aarogyam and anarogyam with
asu
we speak yeah
so deepshika bagni prachati kimartham roga eva na yatha hindi bhashayam rogi eva anarogyana chupe viparitarthak tadanantaram anya viparitarthak आरोग्यम् एकविपरीतार्थक अनारोग्यं विपरी द्विवारं विपरीत तत्र भवति किमर्थम् इति पृच्छति किमर्थम् आरोग्यम् इति एकं पदम् अस्ति इत्युक्ते प्रसिद्धपदं तदेव अवगतं दीप्षिका भगिनी
हा अवगतं बट् कन्फ्यूजन् तो है अभी
नो किमर्थं कन्फ्यूजन्
अनारोग्यं क्यों लगाना
न न न काम नहीं हो रहा है आपके पास रोग कहां से आया काम नहीं हो रहा
है वही तो पता करने गया है वो हॉस्पिटल
न न न जैसे भाषा बोली जाती है उस भाषा को लेकर व्याकरण लिखा जाता है व्याकरण लिख के हम लोग सीखते नहीं है व्याकरण पढ़ के भाषा नहीं सीखते हम लोग भाषा जैसी बोली जाती है वैसे सीखते हैं, अब उसके अंदर आप नियम निकाल के व्याकरण बनाते हैं। तो संस्कृत भाषा में आरोग्यम वॉज अ नॉर्मल हेल्थी स्टेट,
वर्ड इज
तदेव अनारोग्यम अपि भवितुम् अर्हति, इट्स पॉसिबल और नॉट। इज अ प्रसिद्ध, इट इज अ प्रसिद्ध रूपम, इट इज फाउंड इन मेनी मेनी, सो रोग्यम अपि आई एम श्योर भवितुम् अर्हति। छंदसी किम अभवत, छंदों में तो आपको अगर छोटी सी जगह है तो आप रोग्यम लिख देंगे, आपको इतने मात्रा पूरे करने हैं तो आप अनारोग्यम लिख देंगे। मेनी मेनी वेज टू से द सेम थिंग, दैट इज व्हाट मेक्स अ लैंग्वेज रिच। वी डोंट लैंग्वेज, द पर्पस ऑफ लैंग्वेज इज नॉट ओनली टू आस्क फॉर अ कप ऑफ टी, द पर्पस ऑफ लैंग्वेज इज मच मच डीपर एंड ग्रेटर देन सिंपली टॉकिंग टू इच अदर। लैंग्वेज इज अ थिंकिंग टूल, यू हैव टू ऑलवेज रिमेंबर दैट। It's not about, language is not about the quickest, easiest way to say something to somebody. Always keep that in mind. And diversity brings in richness, richness of thought. Diversity in thinking. Same Lego pieces, how can I make a different thing out of these same Lego pieces? So, never think ki isme kaam to chal raha hai mera, kaam chal raha hai mane chalta hai attitude means you don't want to go deeper, so always be watchful of this chalta hai attitude. When that comes you have to say why is that coming, because it is a habit, most of us live in that culture, you have to always question yourself. Ha bhagini, that is why we read the back ancient literature. Good literature means what? Abhi if you look at Shakespeare, English bhasha mein if you look at Shakespeare, you can say, oh my God, agar usko Macbeth ko marna hi tha, to ek sentence mein kyun nahi maar diya, itna lamba chauda likhke mara usko. It's not about that. See, when you go to a movie, so much detail is there. And everybody knows the story. Some Bollywood, there will be a love triangle, then some villain will be there, some hero will be there, some problems in the family will be there, everybody knows. But yet we go repeatedly to different movies with the same plot. Why? For diversity, for richness, no? Something different, some other way of looking at it. The same thing will happen, we know, I know this movie will end happily, but I want to know how. तदेव भगिनी, अन्य किमपि नास्ति। अस्तु 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 विरमामः। गृहपाठरूपेण पुनः किं शब्दरूपाणि स्मारयन्तु, शब्दमञ्जर्यां शब्दरूपाणि स्मारयन्तु, भिन्नभिन्नरूपाणि स्मारयन्तु इत्युक्ते किम्? सुधा भगिनी,
आं भगिनि, फ्रम् द शब्दमञ्जरी डू द यु नो रिकलेक्ट् द डिफरेंट शब्दस् विभक्ति,
हा मेमोराइज
मेमोराइज या
memorize and say, say it again and again, say it to yourself, you become the listener and you become the speaker, both you do to yourself. It is how we study. Astu astu papa ji, shanti paatha vaktum ichhati va?
पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते हरि यो श्रीभ्यो नमः हरि यो
सर्वं कृष्णार्पणमस्तु श्रीगुरुभ्यो नमः अस्तु नमस्कारः सर्वेभ्यः